तिष्ठाहरीरथा युज्यमानायाहि वायुर्न निजितो नो अच्छ युवास्यन्धो अभिसृष्टो अस्मे इन्द्रस्वाहारिमा देवदाय वाजिरापूरुहूता यदप्ति हरीरथस्य धूर्ष्वायूनज्मि राज्यथा संभृतम् विश्वतश्चिदुपेमम् यज्ञमावाहादयिन्द्रम् उपोनयस्व वृषनाथपुष्पो देमावत्त्वम् वृषभस्वधावः गतेतामस्वाविमोचेहसो ना दिवे दिवे सदृशीरद्धिधाराः ब्रह्मणाते ब्रह्मयुजायुनज्विहरीशखायासधमाद आसु स्थिरम् रथम् सुखमिन्द्राधितिष्ठन् प्रजानन् विद्वायाहि सोमम् मा ते हरिवृडनाभीतपृष्ठानिरेरमन्यजमानासो अन्ये अत्यायाहि सस्वतो भजन्तेरम् सुतेभिः प्रणवामसो मैः तवायम् सोमस्त्वमे शर्वाङ्गस्वत्तमम् सुमना अस्य पाहि अस्मिन् यज्ञे बर्हिष्या ऋषद्यादधिष्वेवम् जठर इन्दूरिन्द्र स्तीर्णन्ते बर्हिः सुत इन्द्रसोमः कृताधाना अत्र वेते हरिभ्याम् ततोऽगसे पुरुषाकाशकृष्णे मरुत्वते तुभ्यम् भ्राता हवींषि इमम् नरः पर्वतास्तुभ्यमापस्समिन्द्रगोभिर्मधुमन्दमक्रन् तस्यागत्या सुमनारिष्वाहि प्रजानन् विद्वान् तस्याः यावजो मरुत इन्द्रसो मे ये त्वामबद्धन्न भवन् गणस्ते तेभिरेतम् सुजोडा वावसानो ओग्नेः पीर्वजिह्वया सोमामिन्द्र इन्द्रपिबस्वधया जिच्छुतस्याग्नेर्वा पाहि जिह्वया यजत्र अध्वर्योर्वा प्रजातम् सक्रहस्ताद्धो दर्वा यज्ञम् भविरो जुडस्व सुरङ्गोवेव मघवानमिन्द्रमस्मिन्भरे नृतमम् वाजसातौ शृण्वन्तमुग्रमूदये समत्सुघ्नन्तम् रुद्राणि सञ्जितम् धनानाम्